हरभक्तः संसारादचिराद्भवमुक्तः सेन्द्रियमानसनियमादेवं रक्षसि निजहृदयस्थं देवम्
यस्तं देवम्।